अनुनय विनयाभ्याम् प्रापयित्वा प्रसादम् गतवती। गतवती मधुरेशे मञ्जुसङ्केतकुञ्जम् तदनु शबरनेत्रां प्राप्य काचित् प्रदोषे चतुरतरुं मावाधीत रत्नपेटी ददाना रत्नपेटी ददाना।